एष रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। यमपञ्चक पर्वणः अन्तिमे मुख्य दिवसे अद्य भातृटीका पर्व समायोज्यते, यत्र भगिन्यः स्वकीय भातृणाम् सुख समृद्धि दीर्घायुष्याणि अभिलक्ष्य तान् टीकाम् परिधापयन्ति। टीकायाः परिधापनावसरे भगिन्यः धार्मिक विध्यनुसारेण मण्डपम् निर्माय अष्टानाम् चिरञ्जीवीनाम् यमस्य यमुनायाश्च पूजन पुरस्सरम् तैलधारया आवेष्ट्य सप्तरंगमयीम् पञ्चरंगमयीम् वा टीकाम् दुर्वाञ्च परिधाप्य मखमली शतपत्रिकाणाम् मालाः समर्प्य विविध फलव्यञ्जन मिष्ठान्नानि प्रदाय च भ्रातृणाम् चिरायुष्यम् कामयन्ते। भ्रातरश्च भगिनी प्रपूज्य स्वशक्त्यनुसारेण ताभ्य वस्त्रभूषणादीन् उपहारान् समर्पयन्ति। एतासाम् अटल सुख सौभाग्य समृद्धि चिरायुष्याणि च अभिलषन्ति। पूर्वम् कदाचित् स्वभवनम् प्राप्तो यमः तदीय भगिन्या यमुनया ससम्मानम् टीकाम् परिधाप्य फलपुष्पादीनि समर्प्य च अभ्यर्थिता ततः प्रवृत्ति भ्रातृभगिन्योर्मध्ये टीका परिधापन पूर्वकम् उपहार प्रदान परम्परा प्रारब्धेति पौराणिक वृत्तम् वर्तते। अतएव भ्रातृटीका पर्व यमद्वितीया नाम्ना च प्रसिद्धमस्ति। भातृटीकायाः दिने अद्य आदिनम् टीकाधारणम् कर्तुम् शक्यम् सदपि मुहूर्तान्वेषकाणाम् कृते पूर्वाह्नस्य सप्तत्रिंशत् कलोत्तर एकादश वादने अभिजित मुहूर्ते उत्तम बेलास्थिति नेपाल पञ्चाङ्ग निर्णायक विकास समितेः अध्यक्षः प्राध्यापकः श्रीकृष्ण अधिकारी सूचयति। वर्षेस्मिन् पश्चिम मुखो भूत्वा टीकाधरणम् उत्तमम् अस्तीति च अध्यक्षः प्राध्यापकः अधिकारी असूचयत्। अद्य वृश्चिक राशौ चन्द्रमसः सत्वाद पश्चिम मुखो भूत्वा टीकाधरणे सति उत्तर दिशा चन्द्र दक्षिणे भविष्यति। शुभकर्मणि चन्द्र अग्रे दक्षिण दिशि वा भावनीय इति शास्त्रीय मान्यता वर्तते। राज्य सञ्चालकेन शुभमुहूर्ते एव टीका धर्तव्या इति समित्या ज्ञापितमस्ति। भगिनीवीनानाम् कृते अद्य काष्ठमण्डपस्य राजपुष्करिण्याः मध्यभागे स्थितम् बालगोपालेश्वर मन्दिरम् समेषाम् कृते उद्घाट्यते। बालगोपालेश्वर मन्दिरम् प्रतिवर्षम् एकवारम् अद्यैव दिने उद्घाट्यते। भ्रातृभगिनीवीनाः जना अद्य दिने मन्दिरमेतत् प्राप्य पूजादर्शनम् कृत्वा टीकाम् परिदधति। पञ्चचत्वारिंशद् उत्तर एकादश शततम नेपाल संवत्सर यः काष्ठमण्डपोपत्यकया सह आराष्ट्रम् विभिन्न कार्यक्रमान् आयोज्य समायोजितोऽस्ति। नेपाल संवतस्य अवसरे ह्यः काष्ठमण्डपस्य वसन्तपुरे भक्तपुरस्य नयाठिमी स्थाने ललितपुरस्य मंगल बजार स्थाने च विशेष कार्यक्रमाः आयोजिताः। शंखधर साख्वा प्रतिष्ठानेन ह्यः मध्यठिमीवर्तिनी शंखधर साख्वा चतुष्पथे आयोजिते कार्यक्रमे प्रधानमन्त्री केपी शर्मा ओली नेपाल भाषाम् पाठ्यक्रमे समावेशयितुम् सर्वकारेण प्रक्रिया अग्रे वर्धयिष्यते इति प्रतिबद्धताम् व्यक्तवान्। तदवसरे प्रधानमन्त्री ओली प्रतिष्ठानस्य कतिचित् उचित याचनाः राज्यस्य क्षमतायाः अनुसारेण क्रमशः प्रपूरयिष्यन्ते इति विश्वासम् अदापयत्। कार्यक्रमे प्रधानमन्त्री ओली सर्वकारीय स्तरे नेपाल भाषायाः संरक्षणाय विभिन्न प्रयासाः जायमानाः सन्तीति चर्चयन् क्रमेस्मिन् रेडियो नेपाल नेपाल टेलिभिजन संस्थान राष्ट्रिय समाचार समिति व्यः नेपाल भाषायाम् समाचार प्रकाशनम् प्रसारणम् च प्रारब्धे स्तः इति असूचयत्। तदवसरे प्रधानमन्त्रिणा ओलिना मध्यपुरठिमी स्थिता त्रिषष्टिवर्षाणाम् प्राचीना नयज्या खल थिमी नामिका संस्था नेपाल संवत्सरस्य अभियन्ता भाषायोगस्य सदस्यः संचारकर्मी च सुरेश किरण मानन्धर शंखधर सम्मानेन सम्मानितः आसीत्। ह्यैव ललितपुरे आयोजिते कार्यक्रमे प्रधानमन्त्री ओली नेपाल संवत्सरः नेपाली मृदः संवत्सरः अस्तीति प्रत्यपादयत्। नेपाल संवत्सरः प्रारम्भ दिवसस्य अवसरे वसन्तपुरे आयोजिते कार्यक्रमे प्रधानमन्त्री ओलि सांस्कृतिक पर्वणः विशृंखलकारी क्रियाकलापः केनापि न कर्तव्य इति प्रावोचत। कार्यक्रमे उपप्रधान नगरीय विकास मन्त्री प्रकाशमान सिंह, संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ च सहभागिनौ आस्ताम। नेपाली कांग्रेस दलस्य सभापति शेरबहादुर देउवा सर्वकाराय दलस्य पक्षतः कथम विदोपि अवरोधो न भवतीति समस्पष्टयति। नेपाली कांग्रेस भक्तपुर जनपद कार्यसमित्या ह्य आयोजिते शुभकामनायाः आदान प्रदानके भक्तपुर जनपदीय जय नेपाल स्मारिकायाः लोकार्पण कार्यक्रमे च सभापतिः देवा सर्वकाराय समस्यानाम समाधानाय सर्वविध सहयोगो भविष्यतीति अवोचत। तदवसरे सभापतिः देवा प्रधानमन्त्रिणः केपी शर्मा ओलिनः सर्वकारेण शतदिनानाम् अवधौ समुचितं कार्यं विहितम् अस्तीति चर्चयन् सर्वकारेण अतिरिक्तं समीचीनं कार्यं विधास्यते इत्यत्र आत्मनः विश्वासोऽस्तीति अवोचत। कार्यक्रमे संस्कृति पर्यटन नागरिको उड्डयन मन्त्री बद्री पाण्डे, कांग्रेस दलेन सम्प्रति एमाले दलेन सह सहकार्यं प्रतिस्पर्धा च उभयमपि विधीयमानेस्त इति अगदत्। कास्कीवर्तिनः गण्डकी आयुर्वेद चिकित्सालयस्य, बागलुङवर्तिनः धौलागिरी आयुर्वेद चिकित्सालयस्य च अन्तरंग सेवया सह पञ्चविंशतिः शय्यानां सुविधायुक्तस्य आयुर्वेद चिकित्सालयस्य रूपेण स्तरवृद्धिः करिष्यते। प्रदेश सर्वकारस्य स्वास्थ्य मन्त्री कृष्णप्रसाद पाठकः शिव कार्तिकस्य द्वादश दिवसस्य मन्त्रिपरिषद उपवेशेन वर्तमानार्थिक वर्षे एव एतयोः चिकित्सालयोः अन्तरंग सेवां विस्तारयितुं निर्णीतम् इति असूचयत्। सुनसरी जनपदस्य कोशी ग्रामपालिकायाः सप्तमवडा क्षेत्रस्य हरिपुरादि ह्य चत्वारिंशदधिक शतत्रय किलोग्राम मित गंजा पदार्थेन सह एकं ट्रक यानं नियन्त्रणे गृहीतमस्ति। गोप्य सूचनायाः आधारेण सुनसरी जनपद प्रहरी कार्यालयात् गतेन समूहेन परीक्षणे विहिते एतावत् परिमाणस्य गंजा पदार्थेन सह ट्रक यानं नियन्त्रणे गृहीतमस्ति इति प्रहरी उपरीक्षकः राजाराम तिमलसिना अज्ञापयत्। अछाम जनपदस्य ढकारी ग्रामपालिकाया प्रथमवडा क्षेत्रस्य राउला सेनस्थाने ट्याक्टर यानस्य दुर्घटनायां सप्तजना आहताः वर्तन्ते। साली त्रिणेन आरूढं ट्याक्टर यानम् उन्नमितं सतै एतावन्तो जना आहताः सन्ति। आहतानां जनानां ढकारी स्वास्थ्य सेवा केन्द्रे उपचारः जायमानो स्थिति अछाम जनपद प्रहरी कार्यालयस्य प्रमुख ईश्वरी प्रसाद भण्डारी असूचयत। तनहु जनपदस्य व्यास नगरपालिकायाः दशमवडा क्षेत्रे अधेरी भन्ज्याङ स्थाने ह्य सायं छुरीका प्रहारेण एको जना मृतोस्ति। मृतकः नुवाकोट जनपदस्य सप्तचत्वारिंशत् वर्षीय दिलीप तामाङ अस्तीति तनहु जनपद प्रहरी कार्यालयेन ज्ञापितं वर्तते। प्रहरिणा छुरीका प्रहारकः भक्तपुरस्य विशाल थापा नियन्त्रितो स्थिति प्रहरी निरीक्षकः विकास पासवान असूचयत्। आम जनता दलस्य अध्यक्ष पूर्व मन्त्री च प्रभुशाह गढीमाई मन्दिरम विश्व सम्पद सूच्याम सूचीकर्तुम विशेष प्रयासाय सर्वकारम अभियाचते।